नमस्कारः.
नमस्ते महोदय, नाम प्रिया अस्मि.
नमस्ते भगिनि. अस्तु, तर्हि आरम्भामहे. सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति साधारणकारणविषयः. तत्र किञ्चित् गते सप्ताहे दृष्टवन्तः यत् दिक्कालः इति दृष्टवन्तः. अद्य ईश्वरस्य ज्ञानेच्छाकृतिः अपि च प्रागभावः, तस्मिन् विषये बहु किमपि चिन्तनं भवति. मम चिन्तनमस्ति एकवारं तत् अष्टत्रिंशति अधिक एकशततमे पुटे, एकः त्रीणि अष्ट इति तमे पुटे, ज्ञाने इच्छाकृतीनाम् ईश्वरसमवेतानां साधारणकारणत्वं, तस्मात् आरभ्य किञ्चित् एकः परिचयः पुनः पठामश्चेत् कण्टिन्यूटि सम्यक् भवति इति मम चिन्तनं. तर्हि शुकन् महोदय पठितुमिच्छति वा इतश्च तस्मात् आरभ्य? सर्वैः प्राप्तः पुटं 138 इति. अस्तु महोदय.
ज्ञानेच्छाकृतीनाम् ईश्वरसमवेतानां साधारणकारणत्वम् इति अत्र वयं जानीमः. ईश्वरे ज्ञान इच्छा कृति एतत्त्रयं वर्तते. ईश्वरस्तु परमात्मा, आत्मनि ज्ञान इच्छा कृति इति गुणाः वर्तन्ते इति वयं जानीमः. अतः तादृशज्ञानेच्छकृतीनां, किन्तु कीदृशज्ञानेच्छाकृति इत्युक्ते ईश्वरसमवेतानाम्, ईश्वर इति परमात्मनि समवेतानां साधारणकारणत्वस्य विषये अत्र दत्तमस्ति. इतश्च ईश्वरीयज्ञानेच्छाकृतीनां साधारणकारणत्वं साधयामः. आत्मनिरूपणे निखिलस्य कार्यस्य चेतनसापेक्षत्वं प्रदर्शितं, ततः कुलादिभ्यः कुलालादिभ्यः चेतनेभ्यः घटादिकार्योत्पत्तिः यथा भवति तथा परमाणुसंयोगादिपरम्परया जनुकात् प्रभृति महापृथिव्यादीनाम् उत्पत्तिः सर्वज्ञेन चेतनेन सम्भाव्यते इति तादृशश्चेतनः ईश्वरः इति साधितम्. तत्र चिन्त्यं यत् कपालम् अजानानस्य पुरुषस्य घटकारणत्वं न सम्भवति. घटसमवायीकारणं साक्षात्कृत्य खलु कुलालः घटं निर्मिमीते. तेन कुलालस्य यथा घटकारणत्वं तथैव कुलाले विद्यमानं यत् कपालप्रत्यक्षं तस्यापि घटं प्रति जनकता अन्वयव्यतिरेकाभ्यां सिद्ध्यति. तुल्ययुक्ता जगत्कारणीभूते ईश्वरे विद्यमानं यत् तत्तत् कार्यसमवायीकारणस्य ज्ञानं, तदपि जन्यमात्रं प्रति कारणमिति अवगच्छामः. अत्र अस्मिन् परिच्छेदे ईश्वरीय इत्युक्ते ईश्वरे इति परमात्मने यत् ज्ञान इच्छा कृति वर्तन्ते, तस्य असाधारणकारणत्वम् अस्मिन् परिच्छेदे साधितमस्ति. तस्मिन् प्रथमम् ईश्वरीयज्ञानं, तस्य विषये एव इदानीं साधनम्. अत्र कुलादि वयं जानीमः, घटनिर्माणसमये कुलालः कुलालादिभ्यः चेतनः आवश्यकता अस्ति इति. कुलालः नास्ति चेत् घटं न निर्मातुं शक्यते. केवलं कुलालः अस्ति चेत् इति एव न पर्याप्तं, तस्य ज्ञानमपि आवश्यकम् अस्ति. कीदृशज्ञानम् इत्युक्ते कपाले घटस्य समवायिकारणकपाले कपालेन घटं निर्मातुं शक्यते इति ज्ञानमपि आवश्यकता अस्ति. तादृशज्ञानं नास्ति चेत् यद्यपि तत्र कुलालः वर्तते, पुरतः कपालाः सन्ति चेदपि ज्ञानं विना कपालेन घटं निर्मातुं शक्यते इति ज्ञानं विना कुलालेन तत्र घटनिर्माणं न भवत्येव इति वयं जानीमः. तादृशं यथा घटनिर्माणस्य कुलालस्य आवश्यकता, अपि च तस्य समवायीकारणस्य कपालस्य समवायीकारणस्य ज्ञानमपि आवश्यकता अस्ति, तादृशं जगत्कारणीभूते ईश्वरे, तत्र ईश्वरः जगत्कारणं इति नैयायिकानां मतानुसारं ते स्वीकृतवन्तः. केवलम् ईश्वरः जगत्कारणम् इति नास्ति, ईश्वरः चेतनः इति वयं जानीमः. किन्तु ईश्वरः केवलम् ईश्वरः एव कारणम् इति नास्ति, तस्मिन् विद्यमान तत्तत् कार्यसमवायीकारणस्य ज्ञानम् इति. जगति यानि कार्याणि सन्ति तानि कार्याणां समवायीकारणस्य ज्ञानमपि ईश्वरस्य ईश्वरे भवेत्, तदस्ति अपि ईश्वरे भवेत् इति कृत्वा तस्य ज्ञानस्य साधारणकारणत्वम् अपि अत्र स्वीकृतं भवति.
सम्यक् वद. केवलं वक्तुम् इच्छामि अत्र तृतीयपङ्क्त्यां किमस्ति, ततः कुलालादिभ्यः चेतनेभ्यः घटादिकार्योत्पत्तिः यथा भवति, तत्र किञ्चित् सामान्यं दर्शितं. भवानुच्छति वा? वदतु भवान्.
तत्र अन्यदपि दत्तमस्ति, तथा परमाणुसंयोगादिपरम्परया द्युणुकात् प्रभृतिमहापृथिव्यादीनाम् उत्पत्तिः सर्वज्ञेन चेतनेन सम्भाव्यते. तत्र कुल कपालः वर्तते, यदि कपालः अस्ति चेत् कुलालेन घटं निर्मातुं शक्यते, किन्तु कपालः अपि कार्यमेव. इत्युक्ते तस्य समवायिकारणेन एव कपालः अपि निर्मितम् इति कृत्वा तत्र अन्ततो गत्वा परमाणुपर्यन्तं गन्तव्यं भवति. किन्तु तत्र परमाणौ संयोगः भवेत् भवति चेदेव द्युणुकम् उत्पद्यते, द्युणुकस्य तत्र संयोगः भवति चेदेव त्रिणुकं भवति इत्यादिकं. तत्र महापृथिव्यादीनां, महापृथिव्यादीनाम् इत्युक्ते पृथिवी, वायु, तेजः, आकाशः इति वयं जानीमः किल, तत्र द्रव्याणि, तादृशमहापृथिव्यादीनाम् उत्पत्तिः परमाणुसंयोगेन एव तत्र अन्तिमे महापृथिव्यादीनाम् उत्पत्तिः भवति. तेषाम् उत्पत्तिः कथं भवति इत्युक्ते, इदानीं तत्र तत्र संयोगस्य कारणम् ईश्वरः भवति. यथा कुलालः घट कपालस्य संयोग कपालयोः संयोग संयोगस्य कारणं भवति, तादृशम् ईश्वरः परमाणोः संयोगस्य कारणं भवति इति. तत्रापि तस्य कारणत्वम् अस्ति.
सम्यक् महोदय. यथा चेतनः कुलालः घटज्ञः, घटं प्रति घटादिकार्योत्पत्तेः प्रति आवश्यकः, तथा एव जगतं प्रति सर्वज्ञः चेतनः इति आवश्यकम् इति परिवर्तते. सर्वज्ञेन चेतनेन सम्भाव्यते, सर्वस्य कर्ता सर्वज्ञः भवेत्, घटस्य कर्ता घटज्ञः भवेत् इति सामान्यनियमः.
सत्यम्.
अस्तु, सम्यक् अस्ति. अस्तु, अग्रे पुष्पभगिनी पठितुम् इच्छति वा? एतावता ईश्वरस्य ज्ञानं प्रति उक्तम्. अग्रे
महोदय, इत्थं कुलालस्य घटं,
सत्यम्,
इत्थं कुलालस्य घटं कर्तुम् इच्छा अपि घटोत्पत्तौ आवश्यिका. कपालं साक्षात् कृत्यापि चिकीर्षाशून्येन कुलालेन घटोत्पत्तिः न एव भवति. तादृशचिकीर्षायाः लोके कार्यहेतुत्वे सिद्धे ईश्वरसमवेतत्तादृश चिकीर्षाया अपि जगत्कारणत्वं तथैव निश्चिनुमः. इत्तु तत्तु कुलालस्य घटं कर्तुम् इच्छा चापि घटोत्पत्तौ कुलालः घटं कर्तुम् इच्छा 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 इच्छां करोति करोति घटोत्पत्ति उत्पत्तौ घटोत्पत्तौ आवश्यक आवश्यका तत्तु कर्तुम् इच्छा अस्ति अस्ति चेत् अपि घटोत्पत्ति आवश्यकता अस्ति
पुनः वदतु घटः
कुलालस्य इच्छा अस्ति अस्ति अपि घटोत्पत्ति आवश्यकता अस्ति कुलालस्य कर्तुम् इच्छा अस्ति चेत् अपि घटोत्पत्ति आवश्यकता अस्ति कर्तुम् इच्छा अपि घटोत्पत्ति प्रति आवश्यकता अस्ति
अत्र कर्तुम् इच्छा अपि इति किमर्थम् उक्तम् अपि किमर्थम् अस्ति
तत्तु चेतन चेतन अस्ति न ईश्वर अग्ना जानाति अपि
यथा घटं प्रति कुलालस्य ज्ञानम् आवश्यकं तथा एव कर्तुम् इच्छा अपि आवश्यका इति अत्र विवक्षा घटोत्पत्तौ सप्तमी घटोत्पत्तौ तस्मिन् इच्छा अपि आवश्यका
ज्ञानम् अपि कर्तुम् इच्छा अपि अस्तु अस्तु कपालं साक्षात् कृत्यापि चिकीर्षाशून्येन कुलालेन घटोत्पत्तिः न एव भवति तथैव कपालः साक्षात् कृत्यापि कृतम् अपि इति न तत् साक्षात् कृत्यापि इच्छा अस्ति चेत् कुलालेन उत्पत्तिः शून्येन शून्येन तु तत्तु इच्छा नास्ति चेत् कुलालेन घटोत्पत्तिः न कर्तुं शक् न उत्पत्तिः न भवति
सत्यं सम्यक् अत्र साक्षात् कृत्य अपि इत्युक्ते किं कपालं साक्षात् कृत्य अपि
कृत्य तथैव पृष्टं मम
इत्युक्ते अत्र तस्य पुरतः कपालः अस्ति कुलालः अस्ति तस्य साक्षात् पुरतः कपालः अस्ति तथापि यथा भवती उक्तवती चिकीर्षा नास्ति चेत् कर्तुम् इच्छा नास्ति चेत् घटोत्पत्तिः न भवति
कृत्यापि कृत्या इति कथं वदति
साक्षात् कृत्य साक्षात् इत्युक्ते तस्य पुरतः अस्ति कपालं सः स्वीकृतवान् हस्ते अस्ति
कोऽपि नास्ति तादृशविषयाः लोके कार्यहेतुत्वे सिद्धे ईश्वरसमवेत तादृशचिकीर्षाया अपि जगत्कारणत्वं तथैव निश्चिनुमः तत्तु तादृशचिकीर्षया तत्तु कलालस्य घटोत्पत्ति कर्तुम् इच्छा अस्ति चेत् लोके कार्यहेतु तत्तु हेतु कार्यहेतु इति वदनेन ऐडिया न हेतु हेतु
हेतु कारणं
कारणं कारणं
हेतुः
सिद्धे ईश्वरसमवेतः समेतः तादृशचिकित्सा सो ईश्वरस्य इच्छा न ईश्वर ईश्वर इच्छा न ईश्वरस्य ईश्वरस्य इच्छा न
इच्छा एव चिकीर्षा कर्तुम् इच्छा चिकीर्षा
इच्छा एव जगत्कारणत्वं तथैव निश्चयं सर्वे अपि जगत्कारणत्वं तथैव निश्चयं कुर्मः
अत्र लोके कार्यहेतुत्वे सिद्धे इत्युक्ते किं
तत् कार्यहेतुत्वे सर्वे कार्या इदानीम्
अत्र अत्र सर्वं न अत्र घटः एव यथा यथा लोके सामान्यव्यवहारे घटस्य घटं प्रति कोऽपि कार्यहेतुः भवेत् इति लोके वयं जानीमः तादृशचिकीर्षायाः आवश्यकता अस्ति इति जानीमः तथा एव जगत्कारणत्वं प्रति ईश्वरस्य चिकीर्षा आवश्यकः इति निश्चिनुमः यथा लोके तथा ईश्वरविषये यथा कुललस्य ज्ञानं कपालज्ञानं घटं प्रति कारणं तथा एव इच्छा तथैव ईश्वरस्य ज्ञानम् अपि च ईश्वरस्य इच्छा तावदेव अत्र केवलं वदामि वर्गे प्रश्नः भवतु भगिनि
इच्छा न करोति ईश्वरस्य इच्छा एव करोति कार्यं कार्यं जगत् कारणत्वम् अस्ति न
हा सत्यम् ईश्वरस्य ईश्वरस्य चिकीर्षा आवश्यकः अत्र केवलं वदामि किञ्चित् व्याकरणविषयः अस्ति अत्र आवश्यिका इति अस्ति तत्र संस्कृतभारतीयम् आवश्यकी नो चेत् आवश्यकः आवश्यकम् इति वदामः द्वौ अपि साधु अत्र आवश्यिका इति तत्र टाप् नीप् इति प्रत्ययभेदः अस्ति यथा आवश्यकी साधु तत्र आवश्यिका अपि साधु अस्तु अग्रे सुनील् महोदय वक्तुमिच्छति वा
आवश्यिका तु स्त्रीलिङ्ग आगच्छति न
यथा आवश्यकी आवश्यकी अपि स्त्रीलिङ्ग
एतु आवश्यिका पुल्लिङ्ग अस्ति
आवश्यकः पुल्लिङ्ग आवश्यकः
आवश्यकः
अस्तु अग्रे महोदय सुनील् महोदय समवायि
अहं पठामि आम् समवायिककारणज्ञानमस्तु नाम कुलालात्मनि चिकीर्षति च स घटं तथापि तु कुतश्चित् प्रतिबन्धात् कुलालात्मनि कृतिरूपः गुणः यदि न उत्पद्यते न उत्पद्यते एव तर्हि तत्र घटः तेन ज्ञानचिकीर्षयोरग कुलालकृतिरपि घटहेतुत्व घटहेतुत्वम् अवधारयामः इत्थं च लोके कृतेरपि कार्यजनकत्वे निश्चिते ईश्वरीयकृतेरपि जगत्कारणत्वं स्वीक्रियते अत्र ज्ञानस्य विषये अत्र कुलालस्य आत्मनि ज्ञानं समवायिकारणं कारणेन अस्ति सः घटं चिकीर्षते च सः घटं सः झटं घटं घटस्य निर्माणं कर्तुम् इच्छति
महोदय अत्र समवायिकारणज्ञानम् अस्ति इत्युक्ते किं समवायिकारणज्ञानम् इत्युक्ते
इत्युक्ते अत्र कुलालस्य आत्मनि ज्ञानम् अस्ति इति एव
तत्र अत्र अत्र समवायिकारणस्य ज्ञानम् समवायिकारणस्य तत् कपालस्य ज्ञानम् इति भवतु कुलाल आत्मनि
इत्युक्ते सः घटं घटस्य निर्माणं कर्तुम् इच्छति
कर्तुं जानाति अपि च इच्छति
अतः तादृश घटोत्पत्ति निर्माणज्ञानं तस्य मनसि अस्ति तथापि तु कुतश्चित् प्रतिबन्धात् कुलालात्मनि कृतिरूपः गुणः यदि न उत्पद्यते एव तर्हि तत्र घटः तस्य ज्ञानमस्ति चेदपि तस्य मनसि प्रयत्नस्य चिन्तनं नास्ति चेत् तत्र घटस्य निर्माणमपि न भवति इति. अतः कृतिरूपः गुणः इति वयं पूर्वं दृष्टवन्तः.
प्रयत्नस्य चिन्तनमिति न, ज्ञानमस्ति, चिकित्सा अपि अस्ति, कर्तुम् इच्छा अपि अस्ति. तृतीयविषयः यत् भवता उक्तं प्रयत्नः,
सः प्रयत्नं न करोति चेत् तत्र घटस्य उत्पादनं न भवति. तेन ज्ञानचिकित्सयोरिव कुलालकृतेरपि घटहेतुत्वम् अवधारयामः. पूर्वं दृष्टवन्तः अत्र ज्ञान चिकित्सः इव कुलालस्य प्रयत्नः अपि अत्र घटस्य हेतुः इति वयं ज्ञातुं शक्नुमः. इत्थं च लोके कृतेरपि कार्यजनकत्वे निश्चिते, ईश्वरीयकृतेरपि जगत्कारणत्वं स्वीक्रियते. यदा पूर्वम् उक्तवन्तः अत्र घटस्य निर्माणार्थं कुलालस्य प्रयत्नः आवश्यकः. एवं जगति किं किम् अस्ति तत्र ईश्वरस्य प्रयत्नः अपि अत्र आवश्यकमिति एवं स्वीक्रियते. इदमस्तु विशेषः यत् कुलालसमवेदज्ञाने च कृतयः घटव्यक्तिभेदेन भिन्नाः क्षणिकाः च, ईश्वरीयज्ञाने च कृतयस्तु सकलसमवायिकारणविषये विषयिकाः नित्याः, सर्वाणि कार्याणि अभिभवन् भावयन्ति भावयिष्यन्ति च. अतः ईश्वरसमवेदज्ञाने च कृतयः भवन्ति जन्यजगतः साधारणकारणानि. अत्र एषः विशेषः यत् कुलालसमवेदज्ञाने च कृतयः घटव्यक्तिभेदेन भिन्नाः क्षणिकाः च. अत्र कुलालस्य ज्ञानम्, इच्छा, कृतिः इत्यादयः अत्र भिन्नभिन्नकारणानि, अनन्तरं क्षणिकाः एव.
घटव्यक्तिभेदेन इत्युक्ते किं? घटव्यक्तिभेदेन भिन्नाः
इत्युक्ते घटः इति कुलालस्य अपेक्षया सः घटः इति अन्य पदार्थः
न, तथा न. अत्र कुलालस्य यः इच्छा, सर्वम् इच्छा, ज्ञानं, कृतिः अस्ति, तद् एकमेकं घटं प्रति कारणमस्ति. एकं घटं निर्माति, अन्यघटं निर्माति इति. अपि च एकस्य कुलालस्य ज्ञान इच्छा कृतयः अन्य कुलालस्य इच्छा कृतयः अपेक्षया भिन्नः. घटं प्रति भेदं, व्यक्ति अपि भेदम्. अपि च कुलालः पटं निर्मातुं न जानाति, केवलं घटं जानाति. तत्रापि भेदः अस्ति, किञ्चित् लिमिटेड् अस्ति.
इदानीम्
क्षणिकाः अस्तु. इत्युक्ते भवान् किं वक्तुम् इष्टवान्?
इदानीम् अवगतम् अहं. ईश्वरीयज्ञाने च कृते अस्तु सकलसमवायिकारणविषयिकाः नित्याः, सर्वाणि कार्याणि अभिभवन् भावयन्ति भावयिष्यन्ति च. एवम् अत्र ईश्वरीयज्ञान इच्छा कृतयः अत्र जगति सर्वाणि कार्याणि सन्ति, तेषां कृते समवायिकारणविषयिकाः भवन्ति इति. अत्र अभिभवन् भावयन्ति भावयिष्यन्ति इति कालस्य विषयमपि सूचयन्ति.
अत्र जगति यानि यानि समवायिकारणानि सन्ति तानि सर्वाणि ईश्वरस्य ज्ञानस्य कृतस्य विषयकाः. अपि च नित्याः, यद्यपि तस्य कुलालस्य ज्ञानस्य कृतिः क्षणिकाः, ईश्वरस्य
नित्याः
अनित्याः अपि च अभिभवन् इति कीदृशं पदम्
अभिभवन् इति भूतकालं सूचयति किल अहं न जानामि कीदृशं पदम्
तत्र भूधातुः लुङ् लकारः अत्र णिच् प्रत्यय इति उक्तम् अभिभवन् इत्युक्ते यथा अपठन् अपठन् तथा अभिभवन् भावयन्ति भावयिष्यन्ति अत्र भावयामि इति सामान्यार्थः लोके चिन्तयामि इति प्रयोगः प्रसिद्धः किन्तु अत्र उत्पादयति इति अर्थं स्वीकर्तव्यं भावयामि भावयन्ति इत्युक्ते उत्पादयन्ति भावयिष्यन्ति उत्पादयिष्यन्ति अभिभवन् उत्पादयन् यथा भवता उक्तं भूतकालः वर्तमानकालः भविष्यकालः कालत्रयः अत्र अत्र स्वीकृतम्
अतः ईश्वरसमवेदज्ञाने च कृतयः भवन्ति जन्यजगतः साधारणकारणानि अतः जगति किं किं अत्र उत्पादनं भवन्ति तेषां ईश्वरसमवेद ज्ञाने च कृतयः साधारणकारणानि इति वक्तुं शक्नुमः सर्वेषां कार्याणां प्रति
अस्तु सम्यक् अस्ति अग्रे रमप्रिया भगिनी चित्रविषये प्रतिपादयति वा चित्रद्वयम् अस्ति चित्रचतुर् चत्वारः सन्ति अग्रे एकमेकं कुर्मः
अस्तु प्रथमचित्रे कपाल घटोत्पत्ति इति कार्यम् अस्ति कपालः घटोत्पत्ति आश्रय कपालः घटकारणता इति जनकता कस्मिन् विषये इति
अत्र किमिच्छा इत्युक्ते तेषां किमिच्छा कपालः अस्ति घटं प्रति अधिकरणं घटस्य अधिकरणं कपालः घटोत्पत्तिः अधिकरणे भवति कपाले अधिकरणे भवति ततः कपाले जनकता का घटकारणता अस्ति इति स्वीक्रियते कपाल घटस्य अधिकरणं कपालः घटोत्पत्तिः कपाले भवति इति अस्य महत्त्वः अग्रे अपि आगच्छति तस्मात् घटे कपाले घटकारणता अथवा घटजनकता इति स्वीक्रियते तथा एव
निर्माणं कर्तुं न शक्नुमः तावदेव एतत्तु इह इदानीम् एतत् कालविषये अस्ति कपालः यदा पूर्वं कपालः अस्ति कपाले इह इति दिक्विषये इदानीम् इत्युक्ते कालविषये घटोत्पत्तिः भवति इति प्रायः वाक्यं भवति घटकारणता इति दिक् इह घटकारणता अस्ति घटोत्पत्तिः यदा तत्तु दिक् काल इह इदानीं घटोत्पत्तिः भवति कारणता अपि अत्र आगच्छति इत्युक्ते कपाले घटकारणता अस्ति
यतोहि कालः अधिकरणम् अस्ति घटोत्पत्तिं प्रति तस्मात् तस्य कारणता स्वीक्रियते अपि च चित्रद्वये कः सम्बन्धः इति अपि वक्तव्यं भवति यत्र पूर्वस्मिन् चित्रे किम् आसीत् कः सम्बन्धः कपालस्य
कपालस्य घटं प्रति वा अवयव अवयविनोः सम्बन्धः समवायसम्बन्धः
सत्यम् अग्रिमे चित्रे कालविषये
तत्र तु दैशिक
कालिकविशेषणता
सम्बन्धेन भवति
सत्यम् इति वर्गे उक्तम्. अस्तु
ईश्वरन्याय इच्छा कृतीनां कारणता च इत्थम् इति चित्रद्वयम् अस्ति. अत्र चेतनः इत्युक्ते ईश्वरः वा कुलालः वा चेतनः चेतनः समवायसम्बन्ध चेतननिष्ठसमवायसम्बन्धः इत्युक्ते ज्ञानं चेतनः आत्मनि ज्ञानम् इति स्वीकर्तुं शक्नुमः.
ज्ञानकेन सम्बन्धेन तस्मिन् अस्ति चेतने
समवायसम्बन्धः एव
सत्यं
ज्ञानं ज्ञानं विषयतासम्बन्धेन ज्ञानम् इति विषयता क्षम्यतां ज्ञानं कपाल इति विषयः इत्युक्ते ज्ञानम् इति विषयी द्वयोः मध्ये विषयतासम्बन्धः अस्ति.
कपालः केन सम्बन्धेन ज्ञाने अस्ति
कपालः कपालः विषयितासम्बन्धेन ज्ञाने अस्ति.
अत्र अस्मिन् चित्रे बहु किमपि उक्तं तत्र किञ्चित् जाटिल्यमपि अस्ति. तत्र तत्र विषयता यदस्ति तद्विनिष्टः यथा संयोगः अस्ति पुस्तकम् उत्पीठिकायाम् अस्ति तत्र संयोगः द्विनिष्टः पुस्तके अपि अस्ति उत्पीठिकायाम् अपि अस्ति तथा एव विषयता द्विनिष्टः विषयता कपाले अपि अस्ति ज्ञाने अपि अस्ति. तत्र ज्ञानं विषयतासम्बन्धेन कपाले अपि च कपालः विषयितासम्बन्धेन ज्ञाने इत्युक्ते विषयः विषयितासम्बन्धेन विषयिणी अस्ति कपालः. अत्र यद्यपि विषयता द्विविष्टः तत्र भिन्नभिन्नसम्बन्धेन अस्ति यथा विषयता कपाले अनियोगितासम्बन्धेन अस्ति किन्तु विषयता ज्ञाने प्रतियोगितासम्बन्धेन अस्ति. किमर्थमित्युक्ते पूर्वम् अस्माभिः पठितं यत् आधारः इति अनियोगी अस्ति आदेयः इति प्रतियोगी अस्ति स्वयं स्मरन्ति वा
आधारः इति अनुयोगी
आदेयः इति प्रतियोगी तस्मात् ज्ञानं कपाले विषयता विषयता अनियोगितासम्बन्धेन अस्ति अपि च विषयता ज्ञाने प्रतियोगितासम्बन्धेन अस्ति. तथा एव विषयिता विषयिता अपि द्विनिष्ठः कपाले कपाले विषयिता अस्ति ज्ञाने अपि विषयिता अस्ति सम्बन्धः भिन्नः. विषयता प्रतियोगितासम्बन्धेन ज्ञाने अस्ति अनियोगितासम्बन्धेन क्षम्यतां प्रतियोगितासम्बन्धेन कपाले अस्ति अनियोगितासम्बन्धेन ज्ञाने अस्ति विषयिता. सर्वे अवगतं वा कठिनम् अस्ति वा
एकवारम् अहं वदामि महोदय. विषयता अनियोगितासम्बन्धेन कपाले विषयता प्रतियोगितासम्बन्धेन ज्ञाने अनन्तरं विषयिता स्वीकुर्मः चेत् विषयिता अनियोगितासम्बन्धेन कपाले विपरीतं विपरीतं क्षम्यतां विषयिता प्रतियोगिता सम्बन्धेन कपाले विषयिता अनियोगिता सम्बन्धेन ज्ञाने
किं सम्यक् भगिनि
प्रश्नः नास्ति किन्तु केवलं विषयिता इति वदामश्चेत् पर्याप्तं वा कपालनिष्ठविषयिता इति वक्तव्यं वा इति अहं चिन्तयन्नस्मि
वर्गे निष्ठ इति पदस्य न उक्तं किन्तु वक्तुं शक्यते तथापि कपालनिष्ठविषयिता सत्यं 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 प्रायः तथा स्पष्टं भवति आं सत्यं ज्ञाननिष्ठविषये अपि कपालनिष्ठविषयता अथवा ज्ञाननिष्ठविषयता सत्यं कपालः ज्ञाने विषयिता सम्बन्धेन अस्ति अपि च विषयिता यथा विषयता द्विनिष्ठः विषयिता अपि द्विनिष्ठः इति सर्वं चित्रे नास्ति किन्तु वर्गे बहु समयम् अस्मिन् चित्रे चरितं यद् मया उक्तम् अत्र तथापि भगिनी अग्रिमे चित्रे अपि तथा एव यथा ज्ञानम् अत्र ज्ञानं सविषयकः अस्ति यथा इच्छा कृतिः सविषयकः तथा एव भवतु वदतु अग्रिमे चित्रे इच्छा
आम् इच्छा चेतनः समवायसम्बन्धेन इच्छायाम् अस्ति इच्छा समवायसम्बन्धेन चेतने अस्ति अस्तु आम् इदानीं कपालः विषयता क्षम्यताम् इच्छा विषयतासम्बन्धेन कपाले कपालः विषयितासम्बन्धेन इच्छायाम् अनन्तरं यदा अनुयोगी प्रतियोगी स्वीकुर्मः चेत् तत्र विषयता अनुयोगितासम्बन्धेन कपाले विषयता प्रतियोगितासम्बन्धेन इच्छायां विषयिता स्वीकुर्मः चेत् विषयिता प्रतियोगितासम्बन्धेन कपाले विषयिता अनियोगितासम्बन्धेन इच्छायां
सम्यक् तावदेव अस्तु अस्तु अग्रे एतावत् प्रश्नः अस्ति वा अस्तु अग्रे शुक्वन् महोदय पठति वा प्राग् अभावस्य विषये अग्रे
महोदय अत्र घटस्य समवायसम्बन्धं न कुर्मः
हा तदपि अस्ति किन्तु हा तत् पूर्वम् उक्तं न वा वदतु घटः
घटः समवायसम्बन्धेन कपाले अस्ति
तत्र कीदृशसम्बन्धः
कीदृशसम्बन्धः प्रतियोगिता न
तत्र समवायसम्बन्धः तत्र कथं वदामि गुणगुणिनोः क्रियावतोः तथा अस्ति अत्र किमस्ति प्रिया भगिनि घटकपालयोः कीदृशः
अवयवावयनोः
अवगच्छति पुष्प भगिनी स्मरति वा अवयव अवयविनोः यः समवायसम्बन्धः तादृशसमवायसम्बन्धः घटकपालयोः मध्ये कपालघटयोः मध्ये कपालः अवयवः घटयः अवयवी
कपालः अवयवी घटः अवयवः न
कपालः कपालवः घटस्य अवयवः न वा घटः कपाले अस्ति
कपालः तु अवयविन सन्ति न
सत्यं सगरे महोदय श्रुतवान् महोदय प्रागभावः
हा तत्र एकमेव प्रश्नः महोदय चित्रे तत्र चेतनः ज्ञानम् इति अस्ति किल तत्र शरः विपरीतरीत्या दत्त दातव्यम्. इदानीं ज्ञानमेव चेतने वर्तते समवायसम्बन्धेन.
घटविषये अपि घटसम्बन्धेन कपाले अस्ति. सत्यं, यथा घटः समवायसम्बन्धेन कपाले अस्ति
तादृशं ज्ञानमपि समवायसम्बन्धेन चेतने अस्ति. यथा उपरि गच्छति चेत् शरं चेतनः समवायसम्बन्धेन ज्ञाने अस्ति इति भाति.
सत्यम्.
अपि च अत्र कपालः विषयतासम्बन्धेन ज्ञाने वर्तते.
कपालः विषयतासम्बन्धेन ज्ञाने. कपालः विषयः.
अतः एव अत्र विषयता तत्र प्रतियोगिसम्बन्धेन कपाले वर्तते, विषयता अनुयोगिसम्बन्धेन ज्ञाने वर्तते इति वक्ष्यन्ति. अत्र विषयता इति स्वीकुर्मश्चेत् कपालः आदेयः भवति, ज्ञानम् आधारः भवति, आधारं भवति. तत्रापि प्रायः शरः भिन्न विपरीतरीत्या दत्तमिति अहं चिन्तयामि. इदानीं ज्ञानं तत्र विषयतासम्बन्धेन कपाले वर्तते इति चित्रं बोधयति, किन्तु तादृशं नास्ति. कपालः विषयतासम्बन्धेन ज्ञाने अस्ति.
ज्ञानमपि विषयतासम्बन्धेन कपाले अस्ति इति अपि वर्गे उक्तं. विषयता द्विनिष्ठः, ज्ञानं विषयतासम्बन्धेन कपाले.
किन्तु तत्र यदा विषयता इति स्वीकुर्मः, ज्ञानं सत्यं महोदय, तत्र विषयता द्विनिष्ठः यथा संयोगः. इदानीं घटः भूतले अस्ति इति स्वीकुर्मश्चेत् घटभूतलयोः मध्ये संयोगः वर्तते इति कृत्वा, द्विनिष्ठः इति कृत्वा भूतलं घटे वर्तते इति न वक्तुं शक्यते किल. तत्र आदेयः घटमेव, आधारः भूतलम्. अनयोः सम्बन्धः संयोगः, तत् द्विनिष्ठः. तत्र किञ्चित् भ्रमः अस्ति. अपि च तत्र चतुर्थ चित्रे अपि चेतनः कपालयोः मध्ये शरः दत्तः अस्ति. तत् किमर्थम् इति तदपि मम स्मरणे
इति मम प्रश्नः आसीत्, किन्तु वर्गे किमपि न उक्तं.
संयोगवर्गे वयं प्रायः तत्र महोदयस्य नास्ति, किन्तु पुनर्चिन्तनवर्गः तत्र वयं किञ्चित् तस्मिन् विषये चिन्तितं. तद् न आवश्यकं, दोषेण दत्तम् इति वयं निश्चितम्.
तथैव भवति,
भवतु.
चेतनकपालयोः मध्ये न जानामि किमर्थम्.
एवमेव इच्छास्थाने कृतिं निधाय तत्कारणत्वं प्रदर्शनीयम्. अस्तु. प्राग्भावस्य साधारणकारणत्वं षष्ठः प्रागभावः परिगणितः. कथं हि तस्य कारणताम् अवगच्छामः? प्रागभावः अभावरूपः, न हि सः संयोगेन कार्याधिकरणे कपाले तिष्ठेत्. द्रव्ययोरेव संयोग अभ्युपगमात्. गुणगुणिनोः क्रियाक्रियावतोः अवयवयिनोः जातिव्यक्तयोः विशेषणनित्यद्रव्ययोरेव खलु समवायोऽपि स्वीक्रियते. नैतेषु युगलेषु क्वचित् प्रागभावः प्रविष्टः. पदार्थस्य हि स्वस्मिन्नेव तादात्म्यं समवायीकारणता निर्वाहाय अभ्युपगतम्. अतः प्रागभावस्य कपाले तादात्म्यमिति अपि न शक्यते वक्तुम्. इदानीम् अस्मिन् परिच्छेदे प्राग्भावस्य साधारणकारणत्वम् इति शीर्षकमस्ति. अस्मिन् पाठे प्राग्भावस्य साधारणकारणत्वं कथं साधयन्ति नैयायिकाः इति पाठः अत्र. षष्ठः प्रागभावः परिगणितः. इदानीं षड् साधारणकारणानि सन्ति इति वयं जानीमः. तत्र दिक्, काल, ईश्वरीय इच्छा, ज्ञान इच्छा, कृति इति पञ्च साधारणकारणानि. तेषां कारणत्वमपि पूर्वम् अस्माभिः साधितम्. इदानीं षष्ठः प्रागभावः, तस्मिन् विषये चर्चा. तत्र तस्य कारणतां कथम् अवगच्छामः इति चेत्, प्राग्भावः इति अभावरूपः. तत्र अभावस्य अभावस्य एकविधः प्रागभावः इति वयं तत्र सामान्यरीत्या जानीमः. न हि सः संयोगेन कार्याधिकारणे कपाले तिष्ठेत्. किमर्थम् इत्युक्ते द्रव्ययोरेव संयोगः भवितुमर्हति इति वयं जानीमः. द्वयोः द्रव्ययोः मध्ये एव संयोगः भवितुमर्हति. इदानीं प्रागभावः इति अभावरूपः इति कृत्वा, अभावः इति भिन्नपदार्थः, सप्तपदार्थेषु भिन्नपदार्थः, तद्द्रव्यं नास्ति, द्रव्याद् भिन्नम् इति वयं जानीमः अभावः इति कृत्वा, अभावद्रव्ययोः मध्ये यदा कदापि संयोगः न भवितुम् अर्हति इत्यतः तत्र संयोगसम्बन्धः न भवितुमर्हति इति वयं जानीमः इदानीम्. अपि च समवायः भवितुमर्हति वा इति चिन्तने सति, गुणगुणिनोः क्रियाक्रियवन्तौ अवयवाभिनोः जातिव्यक्तयोः विशेषनित्यद्रव्ययोरेव समवायः भवितुम् अर्हति. इदानीं प्रागभावः गुणः अपि नास्ति, गुणि अपि नास्ति, तत् क्रियावदपि नास्ति, क्रिया अपि नास्ति, यस्य कस्यापि अवयवः अपि नास्ति, प्रागभावः जातिरपि नास्ति, विशेषः अपि नास्ति, तत् भिन्नपदार्थः, सप्तमपदार्थः इति वयं जानीमः इति कृत्वा, प्रागभावस्य अन्यस्य तत्र समवायसम्बन्धः न भवितुमर्हति इति वयं जानीमः.
अपि उपगमात् इत्युक्ते किम्? अभि उपगमात्
द्रव्ययोरेव संयोग अपि उपगमात् इत्युक्ते तत्र द्रव्ययोरेव संयोगः भवितुमर्हति इति
अङ्गीक्रियते इति अभि उपगमात् स्वीकारः
स्वीकृतं नैयायिकेन स्वीकृतम्. अस्तु.
अपि च
एवमेव
किमर्थम् अत्र किमर्थं सम्बन्धः अत्र उक्तमित्युक्ते, यत्किमपि भवतु कारणं कार्याधिकरणे केन सम्बन्धेन भवेत्, तदर्थं प्रागभव अस्ति चेत् कीदृशेन कारणेन सम्बन्धेन भवति इति चिन्तनम् अत्र. संयोगः नास्ति, समवायः नास्ति इति अग्रे भवान्
सत्यं. तत्र यस्य कस्यापि कारणत्वं स्वीकर्तव्यं चेत् तत्र सम्बन्धः वक्तव्यः एव इति कृत्वा, इदानीं तस्मिन् विषये चिन्तनं. संयोगः न भवितुम् अर्हति, अभावः तु द्रव्य प्रागभावः तु अभावस्य एकविधः, तद्द्रव्यं नास्ति इति कृत्वा संयोगः न भवितुम् अर्हति. अपि च समवायः अपि न भवितुम् अर्हति. पदार्थस्य हि स्वस्मिन्नेव तादात्म्यं समवायीकारणता निर्वाहय अभ्युपगमात्. तत्र तादात्म्यसम्बन्धः स्वीकर्तुं शक्यते इति पृष्टे सति, तादात्म्यसम्बन्धस्तु स्वस्मिन्नेव भवितुमर्हति इति कृत्वा, इदानीम् अभावः तु भिन्नपदार्थः, तस्य कारणत्वं वक्तव्यम् इति चेत् तत्र तादात्म्यसम्बन्धः अपि न वक्तुं शक्यते इति कृत्वा, अत्र संयोगसम्बन्धः वा समवायसम्बन्धः वा तादात्म्यसम्बन्धः वा प्रागभावस्य विषये न भवितुम् अर्हति इति पर्यवसितम् अस्ति एतावत्पर्यन्तं.
सम्यक् अस्ति. अत्र न एतेषु युगलेषु इत्युक्ते किं? युगलेषु इत्युक्ते क्वचित्
युगलेषु इत्युक्ते तत्र पूर्वं परिगणितरूपेण दत्तं, गुणगुणिनः क्रियाक्रियवतः इति, तेषु प्रागभावः न अन्तर्भूतः इति.
तेषु पदार्थद्वयोः यथा पुण्यपापं शुभाशुभं तथा गुणगुणिनोः इति पेर् अस्ति युगलेषु, तेषु प्रागभावः न स्वीकृतः, नान्तर्भूतः. अपि च पदार्थः स्वस्मिन्नेव तादात्म्येन भवति, इत्युक्ते अभावः अभावे एव तादात्म्यसम्बन्धेन भवितुमर्हति, न कपाले.
न कपाले
किमपि विषयः स्वस्मिन्नेव भवितुं तस्य योग्यता अस्ति, न अन्यस्मिन् विषये. प्रागभव कपाले तादात्म्यसम्बन्धेन न वक्तुं शक्यते.
आम्
तेषु युगलेषु इति वदनेन किम् इदानीं वदामः नावगतम्?
युगलः इत्युक्ते पेर् यथा पुण्यपापं गुणगुणिनः क्रियाक्रियावतः अवयव अवयव अवयविनः इति पेर् अस्ति, तत्र यत् किमपि उपरि लिखितं तेषु युगलेषु स्वागभावः तत्र नास्ति, तत्र न अन्तर्भूतः अस्ति कुत्रापि. भिन्नपदार्थ महोदयेन उक्तम्. अस्तु अग्रे महोदय शुक्लानमध्ये अग्रे पठति वा आस्ताम्.
हा 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 आस्तां तावत् सत्त्वचिन्तया कारणतायां सिद्धायां कल्पयामः तादात्म्यविव सम्बन्धमपि सम्बन्धमपि कारणतैव तु न सिद्धा कारणतैव तु न सिद्धा घटं निर्मत्सुः कुलालः तत्कारणानि दण्डः चक्रं कपालः जलं रज्जुः इमानि उपादत्ते न हि सः प्रागभावम् उपादानेन उपादान प्रागभावम् उपाददानः दृष्टः आम् चेतनेन कार्याय खलु यत् आदीयते तत्कारणं न अन्यत् दण्डचक्रादि कर्त्रा यत् आनीताम् आनीतं तत् कथञ्चित् सम्बन्धं प्रकल्प्य स्थितिमावहत् भवति कारणम्. हा इदानीम् अत्र आस्तां तावत् सत्त्वचिन्तया इत्युक्ते तत्र तत् पर्याप्तम्. इदानीं तत्र सम्बन्धः विषये गत पूर्वस्मिन् परिच्छेदे यत् चिन्तितं तत् इदानीम् अत्र स्थगयामः आस्तां तावत् इति. सत्त्वचिन्तया इत्युक्ते तत्र सत्त्वचिन्तया इत्युक्ते प्रायः सम्बन्धविषये एव महोदय किल.
न तत्र सम्बन्धः इति साक्षात् न, तत्र तस्य अस्तित्वं प्रागभावस्य कारण कार्ये अस्तित्वम्.
ओहो हो हो
कारणे अस्ति चेत् सम्बन्धः अग्रे वदामः, किन्तु तत्र अस्तित्वमेव न न
मया दोषेण उक्तम्. इदानीं तत्र आस्तां तावत् सत्त्वचिन्तया इत्युक्ते तत्र इदानीं प्रागभावः अस्ति वा न वा इत्यस्मिन् विषये चिन्तनम्
अत्र आस्ताम् इति कीदृशं पदम्
आस्तां विधिलिङ्ग् वा लोट् वा
लोट् लोट् लकारः आस् धातुः आस्ते आस्तां वन्दतां वन्देतां वन्त आस्ताम्
आस्ताम् इति
आस्ताम् लोट्. अत्र केवलं वदामि अत्र अग्रिमपरिच्छेदत्रयं परिच्छेदत्रयं पूर्वपक्षी वदति इति मनसि निधाय पठ्यताम्. अत्र प्रथमपरिच्छेदः लेखकः वदति, अत्र सः आब्जेक्षन् स्वीकरोति, पूर्वपक्षी वदति आस्तां तावत् तत्र अग्रे वदति सः.
अस्तु आस्तां तावत् सत्त्वचिन्तया कारणतायां सिद्धायां कल्पयामः तादात्म्यमेव सम्बन्धमपि. इदानीं तत्र प्रथमं कारणता कारणतायाः सिद्धिः भवेत्, तदनन्तरमेव सम्बन्धः केन सम्बन्धेन कारणं कार्याधिकरणे वर्तते इति इति चिन्तनीयं भवति. इदानीं तत्र कारणता एव तु न सिद्धा, तत्र कारण कारणता एव न सिद्धा इदानीम् एतावत्पर्यन्तम्. अतः तस्मिन् विषये प्रथमं चिन्तनं कृत्वा अग्रे यदि कारणता सिद्ध्यति चेत् केन सम्बन्धेन तद्भवति इति चिन्तनं कुर्मः इति वदति. इदानीम् अत्र प्रागभावस्य कारणता.
अस्तु यथा सम्यक् जानीमः कारणमस्ति, यथा कपालः सर्वे जानन्ति घटं प्रति कारणम् अस्ति, तर्हि कपालः तादात्म्येन स्वस्मिन् स्थित्वा घटं जनयति इति सम्बन्धः अस्माभिः कल्पितः.
आम्
तथा एव अत्र कारणता सिद्धता भवतु नाम अग्रे किं किमपि कर्तुं शक्नुमः, कारणतः तादात्म्यमेव किमपि सम्बन्धः कल्पितुं शक्नुमः, किन्तु आरम्भे कारणता सिद्धा भवेत्.
अतः इदानीम् अत्र कारणता अस्ति वा न वा, प्रागभावस्य कारणता अस्ति वा न वा इति चिन्तनम् अस्ति. अत्र सः वदति घटं निर्मात्सुः कुलालः, यः कुलालः घटस्य निर्माणं करोति सः किं करोति, तत्कारणानि दण्डः चक्रं कपालः जलं रज्जुः इमानि उपादत्ते इत्युक्ते तत्र कार्याधिकरणे तत्र आनीयते एतानि कारणानि आनीयते, दण्डः अस्ति, चक्रम् अस्ति, कपालं, जलं, रज्जुः इति एतत् सर्वं तत्र आनीयते कार्याधिकरणे आनीयते प्रथमं, न हि सः प्रागभावम् उपादानानः दृष्टः तादृशं दण्डः
उपाददानः
उपाददानः ओहो उपाददानः
तत्र व्याकरणविषये वदामि, तत् शानच् पदम् उपादत्ते इति किम् इति आत्मनेपदी धातुः दा उपायपदी धातुः अत्र उपादत्ते दत्ते इति अस्ति, तत्र उपा यथा विद्यमानः प्रकाशमानः अस्ति तथा उपाददानः शानच् पदम् अत्र मानः अपि नास्ति दानः इति एव अस्ति, तद् अदन्तः किमपि नियमः अस्ति उपाददानः इत्युक्ते शानच् पदं यथा क्रियमाणः वर्तमानः तथा
इति प्रागभावः अपि तत्र यथा दण्डः चक्रं कपालः इव प्रागभावस्यापि कपालेन कार्याधिकरणे आनीतं वा इति कोपि इति कोऽपि दृष्टः वा चेत् तत्र न कोऽपि दृष्टः प्रागभावं स्वीकृत्य यथा दण्डः चक्रम् इति यावत् प्रागभावमपि स्वीकृत्य तत्र कार्याधिकरणे कुलालः कुलालेन आनीतः इति कोऽपि न दृष्टः, चेतनेन कार्याय खलु यत् आदीयते तत् कारणं न अन्यत् इति, इदानीं यत् कार्याधिकरणे चेतनेन आनीतं तदेव कारणम् इति स्वीकर्तुं तस्यैव कारणत्वं स्वीकर्तुं शक्यते न अन्यत्, दण्डचक्रादिकर्त्रा यत् आनीतं तत् कथञ्चित् सम्बन्धं प्रकल्प्य स्थितिमावहत् भवति कारणम्, यदि तत्र दण्ड वयं जानीमः दण्डचक्रादिः कुलालः कार्याधिकरणे आगच्छति, यदि तादृशं कारणत्वेन स्वीकृत्य कार्याधिकरणे आनयति तस्य इदानीं दण्डः निमित्तकारणं, चक्रमपि निमित्तकारणं, कपालः तु समवायकारणम् इति तत्र तादृशं वयं सम्बन्धः कल्पयामः, किन्तु यस्य न आनयनमेव नास्ति तस्य कथं वा सम्बन्धः कल्पनीयं, तस्य आवश्यकता एव नास्ति प्रथमम्, अतः प्रागभावस्य कारणत्वं साधनीयं तदनन्तरमेव सम्बन्धः विषये चिन्तनीयः इति अत्र दत्तमस्ति.
सम्यक्, अत्र किं वदामि, अत्र निर्मित्सुः इति कीदृशं पदं, निर्मित्सुः
निर्मित्सुः यः निर्माणं करोति इति अहम् अवगच्छामि, किन्तु
अत्र यः यथा युयुत्सुः अस्ति गीतायां युयुत्सुः चिकीर्षुः तथा निर्मित्सुः यः निर्माणं कर्तुम् इच्छति, यथा निर्माणस्य इच्छुः यस्मिन् इच्छा अस्ति सः निर्मित्सुः.
ओ सनन्तपदमस्ति,
निर्मातुम् इच्छा निर्मातुम् इच्छुः यः इच्छुः यथा युयुत्सुः तथा एव. अपि च अत्र अन्तिमवाक्ये दण्डचक्रादिकर्त्रा यत् आनीतं तत् इत्युक्ते किम्,
दण्डचक्रादिकर्त्रा यत् आनीतं तत्र तत्र दण्डः वा चक्रादि चक्रं वा,
सत्यं तत् कथञ्चित् सम्बन्धं प्रकल्प्य स्थितिम् आवहत्, स्थितिम् आवहत् इत्युक्ते किम्,
तस्य यदा दण्डः चक्रं वा तत्र अनेन आनीतः चेत् तदनन्तरमेव सम्बन्धः प्रकल्प्यः अस्माभिः प्रकल्प्यः भवति, तद स्थितिम् आवहत् इत्युक्ते तस्य सम्बन्ध तस्य कारणत्वं,
हा तस्य आधेयता प्राप्य यत्किमपि तस्य यथा भवता उक्तं तत्र निमित्तकारणम् अस्ति कुत्र व्यवहारः अस्ति तत्र समवायकारणम् अस्ति तादृशस्थितिं किमपि प्राप्य तादृश आधेयता प्राप्य किमपि कारणं भवति सम्बन्धं प्रकल्प्य कारणं कारणमिति भिन्नभिन्नकारणानि स्वीकुर्मः.
आम् आम्
अवगतं सर्वैः. प्रश्नः अस्ति वा अस्मिन्? अस्तु, अग्रे पुष्पा भगिनी पठति वा? कुतः एतत्? हरि ओम्.
अस्तु महोदय, कुतः एतत् उपादनम् आवश्यकम्? उपादानम् एक आवश्यक उच्यते. अन्यथा दण्डत्वं दण्डरूपं वा दण्डे समवायेन विद्यमानं कपाले अपि स्वसमवायि संयुक्तत्वसम्बन्धेन स्थितम् इति तदपि च भवेत् घटकारणम्. सर्वे पठामि
तावत् वदतु.
कुतः एतत् उपादानम् आवश्यकम्? एतत् सर्वाणि विवरणं आवश्यकम् इति उच्यते. नैयायिकानां कोऽपि किम् इति उच्यते? एतत् त्रीणि पङ्क्तीनि
अत्र उपादानम् इत्युक्ते दण्डचक्रादि यत् आनीतं, यत् यद्यत् तेन आनीतं, तत्र किमर्थम् एतत् अत्र उपरि किं पूर्वस्मिन् परिचयते किम् आसीत्? यत् यत् चेतनः आनयति ते एव कारणानि भवन्ति, न अन्यत्. अत्र पूर्वपक्षी वदति किमर्थम् एतत् लिमिट् कुर्मः, किमर्थं वदामः चेत् वदामः यद्यत् तेन आनीतं ते एव कारणानि भवन्ति, न भिन्नविषयाः, किमर्थम् इति अस्ति. अन्यथा इति न वदामः चेत् अन्यथा किं भवति?
अन्यथा दण्डत्वं दण्डरूपं वा दण्डे समवायेन विद्यमानं कपाले अपि स्वसमवायि संयुक्तत्वसम्बन्धेन स्थितम् इति तदपि च भवेत् घटकारणं. हा, घटकारणं तु दण्डत्वं दण्डरूपं वा दण्डे समवायेन कपाले विद्यमानम् इति संयुक्तत्वसम्बन्धेन स्थितम् इति तदपि च भवेत् घटकारणं. ये सर्वे घटकारणम् अस्ति.
किं 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 सर्वे?
घटत्वं घटरूपं
दण्डत्वं
दण्डत्वं
दण्डत्वं कारणं भवति वा? दण्डत्वं कारणं भवति वा?
न न न दण्ड दण्ड दण्डः चक्र चक्रं जलं ये सर्वे
दण्डः एव कारणं, किन्तु दण्डत्वम् अपि च दण्डरूपं दण्डेन सह आगच्छति, समवायेन आगच्छति. यतोहि दण्डे दण्डत्वम् अस्ति, दण्डे रूपम् अस्ति, किमपि रूपम् अस्ति, अपि च दण्डे कपाले अपि दण्डसमवाय स्वसमवायि संयुक्तत्वम् अस्ति दण्डस्य, तर्हि ते अपि कारणानि भवन्ति.
ते अपि कारणं भवति, दण्डत्वं न भवति इति.
अतैव अग्रे आकाशम्.
आकाशं च विभुत्वात् सर्वमूर्तसंयुक्तम् इति निरूपितम्. सर्वमूर्तसंयुक्तम् आकाशं च सर्वमूर्तमूर्त किं
मूर्त इत्युक्ते किं सुनील महोदय? सर्वमूर्तसंयुक्तम् इत्युक्ते
मूर्त इत्युक्ते अत्र क्रियया अत्र द्रव्यम् उत्पद्यते. मूर्तद्रव्यमिति
वदामः, क्रिया भवति या क्रिया योग्यः अस्ति मूर्तद्रव्यं आकाश मूर्तद्रव्यम् आकाशं विभुः अस्ति किन्तु सर्वमूर्तसंयुक्तम् अस्ति, सर्वे मूर्तद्रव्याः आकाशे संयुक्तः अस्ति, आकाशस्य संयोगः अस्ति सर्वाणि मूर्तद्रव्याणां प्रति
इति निरूपितम् इति पूर्वपक्षे. मूर्तं च क्रियाशालित्वात् कपालम् इति तस्मिन् संयोगः आकाशस्य अव्याहता एव. मूर्तं च क्रियाशालित्वात् कपालम् इति तस्मिन् संयोगः आकाशस्य अव्याहता एव. तत्तु आवाहति
अत्र किमस्ति, मूर्तद्रव्यं क्रियाशाली अस्ति, तस्मिन् क्रियायोग्यता अस्ति. कपालं मूर्तद्रव्यं क्रियाशाली अस्ति, तस्मात् आकाशस्य संयोगः कपालेन सह भवति एव. अव्याहतः इत्युक्ते अत्र अ उपसर्गः वि उपसर्गः हन् धातुः, हन् धातुः अव्याहतः न नश्यति, अस्ति एव. आकाशस्य संयोगः सर्वमूतद्रव्यं प्रति अस्ति एव. तर्हि कपालम् अस्ति, कपाले अपि कपालः अपि आकाशेन संयुक्तः अस्ति. तर्हि संयोगेन आकाशः अपि कपाले अस्ति, तर्हि आकाशमपि कारणं भवतु नाम. यत् दण्डत्वं दण्डरूपं दण्डेन सह आगच्छति, तत् कपालेन सह आकाशः अपि आगच्छति संयोगसम्बन्धेन, तर्हि आकाशः अपि कारणं भवतु नाम स्थितिः आगच्छति. ततः उपादानम् आवश्यकम् इत्युक्ते वक्तव्यं भवति यत् यच्चेतनेन कुलालेन कार्यं प्रति आनयति आदीयते ते एव कारणानि न अन्यत्.
अतः संयोगेन आकाशस्य अपि कपाले सत्त्वात् भवेत् आकाशम् अपि घटकारणम्. ओ इदानीं त्वम् उच्चं न उक्तं न
अग्रे सुनील महोदय अनिष्टम्
अनिष्टं च प्रामाणिकानां घटं प्रति दण्डत्वस्य घटरूप दण्डरूपस्य आकाशस्य वा कारणत्वमिति न इष्टापत्या सम्भवति परिहारः. अतः न कार्याधिकरणे सत्तामात्रं विद्यमानत्वेव विद्यमानत्वमेव कारणतां ज्ञापयति. किं तर्हि चेतनकर्तृक उपादानमेव सिद्धे च तथाविधो उपादाने सम्बन्धमपि कार्यकारणयोः समानाधिकरण्य निर्वाहाय कल्पयामः. निरूपितं च अचादानं चेतनेन कुलालेन चक्रादीनामिति लोकसिद्धा तेषां कारणता. न ईदृशम् आदानं प्रागभावस्य सम्भवति इति दुरुपपादा तस्य घटकारणतापि. अनिष्टं च प्रामाणिकानां घटं प्रति दण्डत्वस्य दण्डरूपस्य आकाशस्य वा कारणत्वमिति न इष्टपत्या सम्भवति परिहारः. अतः अत्र घटं प्रति दण्डत्वं दण्डरूपत्वं रूपम् आकाशः वा कारणमिति कारणम् इति कारणमस्ति इति अत्र प्रामाणिकानां रीत्या न वदामः इत्युक्ते अत्र ते इदानीं कारणानि न सन्ति इति.
अत्र इष्टपत्ति इत्युक्ते कः? इष्टापत्य इत्युक्ते किम्? इष्टापत्य
इष्टापत्य इत्युक्ते तृतीया इति चिन्तयामि, परन्तु
तृतीया सत्यं, तृतीया इत्युक्ते सत्यं, किन्तु अत्र अत्र किञ्चित् वदामि, अत्र किञ्चित् जाटिल्यम् अस्ति. अत्र महोदयेन उक्तं यत् अत्र सम्यक्तया न लिखितम्. अत्रापि पूर्वपक्षी एव वदति, किन्तु मध्ये इष्टापत्तिः इति तृतीयः पुरुषः, तृतीयः कोऽपि आगत्य वदति, अस्तु सर्वाणि कार्याणि भवन्तु, दण्डत्वं, दण्डरूपम्, आकाशं, सर्वेपि कार्याणि भवन्तु इति अहं स्वीकरोमि इति इष्टापत्तिः वदति. इष्टापत्तिः सर्वं स्वीकरोति, न केवलं यत् आनीतं, किन्तु दण्डत्वं, दण्डरूपं भवतु नाम किं, कः दोषः इति एकः वदति. अस्य परिहारः प्रमाणिकानाम् अनिष्टम् इति अस्ति,
तेन अङ्गीकुर्वन्ति
शास्त्रज्ञानां न अङ्गीकुर्वन्ति यत् दण्डरूपं, दण्डत्वं सर्वं कारणं भवति इति ते न इच्छन्ति. अनिष्टं तस्मात् इष्टपरिहारः न सम्भवति.
अतः न कार्याधिकरणे सत्तामात्रं विद्यमानत्वमेव कारणतां ज्ञापयति. किं तर्हि चेतनकर्तृक उपादानमेव? अत्र कार्याधिकरणे विद्यमानत्वकारणताम् एव अत्र न ज्ञापयति इति. अत्र तेषां दण्डत्वस्य, दण्डरूपस्य, आकाशस्य, अतः अत्र चेतनकर्तृकम् उपादानमेव अत्र स्वीकुर्मः इति, इत्युक्ते चक्रं, कपालः, जलम् इति एव अत्र स्वीकुर्मः इति.
तत्र कार्याधिकरणे यत्किमपि अस्ति तदेव न आवश्यकं, तदेव न पर्याप्तं. यद्यत् चेतनकर्ता आनयति, चेतनकर्तृकम् उपादानम् इत्युक्ते यः चेतनकर्तुः आनयति, चेतनकर्त्रा तेन किं किं किम् आनीयन्ते, ते एव उपादानं, ते एव कारणानि.
सिद्धे च तथाविध उपादाने सम्बन्धमपि कार्यकारणयोः सामानाधिकरण्य निर्वाहाय कल्पयामः. अत्र एवंविध चक्रकपाल इति उपादाने अत्र कार्यकारणयोः मध्ये सम्बन्धमपि अत्र कल्पयामः. इत्युक्ते अत्र समानाधिकरणं किम् इति दृष्ट्वा अत्र तेषां सम्बन्धम् अपि अत्र कल्पयामः. निरूपितं चादानं चेतनेन कुलालेन चक्रादीनामिति लोकसिद्धा तेषां कारणता. अत्र कुलालेन यत्र किं किं अत्र आनीतम् अत्र चक्रादीनामिति, तदेव कारणमिति अत्र लोकसिद्धम् अस्ति. न ईदृशम् आदानं त्वागभावस्य सम्भवति इति दुरुपपादा तस्य घटकारणतापि. अत्र ईदृशम् आदानम् इत्युक्ते अत्र चक्रकपाल इत्यादीनि अत्र त्वागभावस्य कारणमिति वयं करणं न इति वयं जानीमः. अत्र
यथा यथा चक्रादीनाम् आनीयन्ते तथा प्रागभवः न आनीयते, न ईदृशं स्वीकार्यं प्रागभावस्य सम्भवति. तस्मात् प्रागभावस्य घटकारणता अपि दुरुपपादा, दुष्करम् उपपादयितुं, प्रतिपादयितुं कष्टं, कठिनं. दुरुपपादा
दुर्पपाद इति वदनेन
दुष्करम् उपपादयितुम् उपपादयितुं प्रतिपादयितुं दुष्करं कठिनं क्लेशः अस्ति न शक्नुमः काठिन्यं वर्तते. प्रश्नः अस्ति वा एतावत्? अस्तु रमाप्रिया भगिनी समापयति वा? अत्र पूर्वपक्ष अत्र सिद्धान्ती वदति एतावता पूर्वत्रयं परिच्छेदः पूर्वपक्षिणा उक्तम्, इदानीं सिद्धान्ती समाधानं वक्तुम् आरभते. भगिनी अस्ति वा? रमाप्रिया भगिनी.
आम् 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 आं महोदय.
सत्यं
सत्यं सत्यं न सम्भवति प्रागभावस्य आधानं मूर्तानं हि एतद् आवश्यकं यत् जनकत्वनिर्वाहाय आनीयन्ते. तावता आनयनयोग्य योग्यानां कारणता न व्याह्यन्ते.
आनयन अयोग्यानाम्.
आम् आनयन अयोग्यानाम् आम् कारणता न व्याह्यन्ते. दर्शितरीत्या सिद्धकारणभावयोः दिक्कालयोः विभुत्वमपि सिद्धमेव, न हि तयोः क्रिया सम्भवति. ज्ञानसमवायिकारणस्य आत्मनः विभुत्वात् क्रियोत्पादसम्भवः स्फुट एव. गुरुत्वादिगुणानां पतनादिकारणता निरूपिता एव. क्रियायाः अपि विभागं प्रति उत्तरदेशसंयोगं प्रति च कारणता निरूपिता. न हि गुणक्रिययोः अमूर्तयोः आदानं सम्भवति. अतः मूर्तानामेव कार्याधिकरणे आदानं कारणतां ग्राह्येत्, अनाधानं वा प्रतिषिध्येत्. न च प्रकृतः प्रागभावः मूर्तरूपः इति तत् कारणत्वनिरूपणाय आधान अनाधानयोः चिन्ता निष्फला एव. अत्र प्रथमं सिद्धान्ती वदति सत्यमेव यत् कारणताविषये वदति सत्यमेव, परन्तु न सम्भवति प्रागभावस्य आदानं मूर्तानां हि एतद् आवश्यकं यत् जनकत्व निर्वाहाय आनीयन्ते.
परन्तु प्रायः न आवश्यकः, न सम्भवति प्रागभावस्य आदानं सः स्वीकरोति
स्वीकरोति
प्रागभावस्य आदानं न भवति
न भवति इति प्रथमं स्वीकरोति. मूर्तानां हि एतत् मूर्तानाम् इत्युक्ते यत् द्रव्यं मूर्तद्रव्यं ये आनयन्ति एतद् आवश्यकं यत् जनकत्वनिवार निर्वाहाय आनीयन्ते. अस्तु प्रागभावस्य विषये एतद् न आवश्यकं, परन्तु यदा मूर्तद्रव्याणां विषये एतद् आनयनम् इति आवश्यकमेव इति वदति किल.
यत्र यत्र आनयनं भवति तत्तु मूत्रद्रव्याणाम् एव भवति. आनयनं भवति क्रिया भवति आनयनं, तत् कुत्र भवति? केवलं मूत्रद्रव्याणामेव भवितुमर्हति. तर्हि मूत्रद्रव्याणामेव आवश्यकं यत् जनकत्वं दर्शनाय आनीयन्ते. किन्तु तावता अग्रे
तावता क्षम्यताम् आनयनयोग्यानां कारणता अयोग्यानां कारणता न व्याह्यन्ते. यद् आनयितुं न शक्नुमः यदा प्रागभावविषये यद् मूर्तद्रव्यं नास्ति तत्र कारणता इति न आवश्यकं, तद् 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 अपगच्छति इति किल.
अत्र यद्यपि मूर्तद्रव्याणामेव आनयनं भवितुम् अर्हति, तथापि आनयन अयोग्यानां कारणता न अपगच्छति. इत्युक्ते यत् आनयन अयोग्यः अस्ति तस्मिन् कारणता न अस्ति इति न वक्तुं शक्नुमः. केवलं मूर्तद्रव्यमेव कारणं भवति इति नास्ति. ये आनयन अयोग्यानां अयोग्याः सन्ति तस्मिन्नेव कारणता भवितुम् अर्हति, न व्याघ्रन्ते न न न न किं निषिद्धं कुर्मः कर्तुं शक्नुमः, न रिफ्यूस् कर्तुं शक्नुमः, न अपगच्छति यतोहि अग्रे उदाहरणं भवति अग्रे
दर्शितरीत्या सिद्धकारणभावयोः दिक्कालयोः विभुत्वमपि सिद्धम् एव. अत्र यदा उदाहरणमस्ति दिक्कालः विभुत्वम् इत्युक्ते ते आनयन अयोग्याः अस्ति, तत्र वयं द्रष्टुं शक्नुमः तदपि कारणम् इति, तत्र कारणता न अपगच्छति.
सत्यं, ते अपि कारणानि सन्ति, यद्यपि ते भूतद्रव्या नास्ति विभुः अस्ति तथापि तस्मिन् कारणता अस्ति इति साधितं पूर्वं दिक्कालयोः.
नहि तयोः क्रिया सम्भवति, इत्युक्ते यदा दिक्कालयोः तत्र तु क्रिया न सम्भवति, तदापि तद् कारणम् अस्ति इति अस्ति. ज्ञानसमवायिकारणस्य आत्मनः विभुत्वात् क्रियोत्पादसम्भवः स्फुटः एव. यदा क्षम्यतां, ज्ञानं तु समवायिकारणे आत्मनि भवति इति तत्तु स्फुटः, विभुत्वात् क्रियोत्पाद असम्भवः. आम्, तत्र तु आम् क्रिया नास्ति, विभुत्वम् अस्ति आत्मनः इति, तत्र तत्तु स्फुटः एव, तत् मूर्तद्रव्यं नास्ति इति स्फुटः एव, समवायिकारणेन आत्मनि अस्ति इति स्फुटम् एव. आम्, विभुत्वम् अस्ति इति स्पष्टम्. गुरुत्वादिगुणानां पतनादिकारणता निरूपिता एव, तद्वयं पूर्वं परिशीलितवन्तः तस्मिन् विषये, गुरुत्वगुणः विषये, तत्र तु पतनक्रिया अस्ति इति तदपि वयं निरूपितवन्तः कारणम्.
अत्र गुणः भूतद्रव्यं वा
न?
गुणः
न,
गुणक्रिया नास्ति, आत्मनिक्रिया नास्ति, गुरुत्वमिति गुणः, तस्मिन् गुणे कारणता अस्ति, पतनस्य कारणता अस्ति, किन्तु तदपि भूतद्रव्यं नास्ति,
नास्ति
तथापि तस्मिन् कारणता अस्ति.
क्रियायाः अपि विभागं प्रति उत्तरदेशसंयोगं प्रति च कारणता निरूपिता. तत्र विभागं यदि वयं स्वीकृतवन्तः, तदपि वयं पूर्वं निरूपितवन्तः, उत्तरदेशसंयोगं प्रति पूर्वदेशसंयोगम् इति कारणता अस्ति इति तत्रापि वयं दृष्टवन्तः. अनन्तरं नहि गुणक्रिययोः अमूर्तयोः आधानं सम्भवति. गुणक्रिययोः अमूर्तयोः यद् मूर्तद्रव्यं नास्ति, गुणक्रिययोः मूर्त
यथा पूर्वम् उक्तं गुरुत्वमिति गुणः, विभागात् तत्र क्रिया अस्ति, किन्तु गुणक्रिययोः ते अमूर्ताः, तेषां क्रिया न सम्भवति, तेषाम् आदानमपि न सम्भवति. गुणस्य वा क्रियायाः वयम् आदानं न कुर्मः, आनयं न कुर्मः, तथापि कारणमस्ति. केवलं मूतद्रव्यं कारणं, मूतद्रव्यस्य आनयनेन कारणम् अस्ति इति न वक्तुं शक्नुमः, यतोहि बहवः विषयाः सन्ति ये अमूर्ताः, तथापि ते कारणानि भवन्ति, दिक्कालः, ज्ञानं, गुणक्रिया, एते अमूर्ताः, किन्तु ते कारणानि भवन्ति एव, तेषाम् आनयनं न भवति, कोऽपि न आनयति गुणः वा क्रिया वा. अवगतम्? पूर्वं पूर्वपक्षिणा उक्तं यत् यः कुलालः आनयति ते एव कारणानि भवन्ति, किन्तु आनयनं केवलं मूतद्रव्याणां भवितुम् अर्हति, अमूर्त अमूर्ताः भावाः विषयाः सन्ति, ये कारणानि भवन्ति एव दिक्कालः गुणः क्रिया. अवगतम्? अतः अग्रे
मूर्तानामेव कार्याधिकरणे आदानं कारणतां ग्राह्येत् अनादानं वा प्रतिषिध्येत्. अतः यदा वदति मूर्तानामेव मूर्तद्रव्याणामेव कार्याधिकरणे, यदा कपालः इति कार्याधिकरणे आधानं इत्युक्ते तदेव वयम् आनयनमेव कारणता ग्राह्येत् कारणता स्वीकर्तव्यम्. अनाधानं वा प्रतिषेधयेत् न आनयति चेत् तत्र कारणता निषेधः भवति.
केवलं मूर्तानां
मूर्तानां मूर्तानां विषये. आम् आम्. न च प्रकृतः प्रागभावः मूर्तरूपः इति तत् कारणत्वनिरूपणाय आधान अनाधानयोः चिन्ता निष्फला एव. तत्र वयं न वक्तुं शक्नुमः यदा आधानं वा अनाधानं वा भवतु इति प्रागभावस्य विषये. किमर्थम् इत्युक्ते तद् मूर्तद्रव्यं नास्ति, तस्य आनयनं दुष्करं, तद् न आनेतुं शक्नुमः. अतः वयं निरूपण कारणत्वनिरूपणविषये आधानम् अनाधानम् इति चिन्तनं समीचीनं नास्ति, न कर्तुं शक्नुमः.
सम्यक्, तथा एव अस्ति. केवलं तत् तर्कः यः सः वदति यद् आनीयते आनीयन्ते ते एव कारणानि, तत् सः तर्कः केवलं मूर्तद्रव्याणां विषये एव भवितुमर्हति. अमूर्तविषयस्य तथा विधचिन्तनं निष्फला, सम्यक् नास्ति इति. अस्तु, प्रश्नः अस्ति वा एतावता? सम्यक्तया अवगतं सर्वं? अस्तु, तर्हि अत्र स्थगयामः, समयः जातः. आगामिसप्ताहे अग्रे सरेम. सम्यक् अस्ति वा?
धन्यवादः.
अस्तु, धन्यवादः, शुभरात्रिः.
धन्यवादः.